एष रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रवाचक उपेन्द्र दाहाल प्रतिनिधि सभाया विघटनम् निरस्य नेपाली कांग्रेस दलस्य सभापते शेरबहादुर देउवाविधस्य प्रधानमन्त्रिणे नियुक्तिम् अभियाच्य सर्वोच्च न्यायालये पञ्जीकारितम् निवेदनम् आदृत्य ह्यो विमर्शनम् प्रारब्धम्। प्रधान न्यायाधीशेन चोलेन्द्र शमशेर जबरा इत्यनेन सहितै न्यायाधीशै दीपक कुमार कार्की, मीरा खड्का, ईश्वर खतिवड़ा, आनन्द मोहन भट्टराई चेती सम्मिलितेन सांविधानिक न्यायपीठेन आदेशाभियाचन निवेदनस्य श्रवणमेतत् प्रारब्धम् वर्तते। सांविधानिक न्यायपीठे निरन्तरम् श्रवणस्य क्रमे ह्यः प्रथम दिवसे कांग्रेस सभापतिना देउवाविधेन सहितानाम् षट्चत्वारिंशत् अधिक शतस्य सांसदानाम् आदेशाभियाचन सम्बद्ध प्रकरणे निवेदकानाम् पक्षत अधिवक्तारौ खम्बबहादुर खाती, गोविन्द शर्मा बन्दीच, वरिष्ठाधिवक्तार बद्रीबहादुर कार्की, शम्भु थापा, महादेव यादवश्च व्यमृशन्। प्रतिनिधिसभाया विघटनस्य सम्बन्धे पञ्जीकारितस्य एतस्य आदेशाभियाचन निवेदनस्य विषये सर्वोच्च न्यायालयेन निवेदक पक्षाय प्रारम्भिक विमर्शनार्थं द्वादश घण्टा पश्चात् उत्तरण सम्बद्ध विमर्शनाय च घण्टात्रयं चेति कृत्वा पञ्चदश घण्टानां समयः निर्धारितो वर्तते। प्रतिनिधिसभाया विघटनस्य विरुद्धे सर्वोच्च न्यायालये त्रिंशत् आदेशाभियाचन निवेदनानि पञ्जीकारितानि सन्ति। प्रधानमन्त्री केपी शर्मा ओली कथयति एतत् ख्रीष्टवर्षस्य अभ्यन्तरे सर्वेभ्यो नागरिकेभ्य कोरोना विषाणो विरोधी टीकाकरणम् आदास्यते। नेपाल बाल संघटनस्य केन्द्रीय सभाया अधिवेशनम् ह्य श्रव्यदृश्य प्रविधेर माध्यमेन सम्बोधयन् प्रधानमन्त्री ओली सर्वकारेण टीकाकरणाभावस्य समस्या क्रमशः समाधास्यते इति अज्ञापयत्। प्रधानमन्त्री ओली अवोचत् बालबालिकाः शारीरिक रूपेण, मानसिक रूपेण च सबलाः, शैक्षिक रूपेण उत्कृष्टाः, प्रतिस्पर्धा त्मक क्षमतायुक्ताश्च विधाय अग्रे नीताः सत्यः एव भाविसमये देशेन देशभक्तानां कर्मठानाञ्च यूनां नेतृत्वं प्राप्स्यते। प्रधानमन्त्री ओली अगदत् सर्वकारेण अशक्तानां, असहायानाञ्च बालबालिकानां परिपालनेन सह आवश्यकं सर्वं प्रबन्धनं विधीयते। अधिकार दुरुपयोगानुसन्धानायोगेन कर समाधानायोगस्य तात्कालिकस्य अध्यक्षस्य लुम्बध्वज महतस्य सदस्यद्वयस्य उमेश प्रसाद ढकालस्य चोडामणि शर्मणस्य विरूद्धे भ्रष्टाचारस्याभियोगे विशेष न्यायालये न्यायिक प्रकरणं पञ्जीकारितं वर्तते। आयोगस्य अनुसारेण एतैः अभियुक्तैः नेपाल राजपत्रे प्रकाशितेन सूचितादेशेन कर समाधानायोगाधिनियमेन प्रदत्ताद् अधिकार क्षेत्रात् बहिर्गत्वा करदातृभिः सह कर समाधान संविधा वितेति प्राप्तं वर्तते। आयोगेन एतेभ्यः एकाब्जस्य त्रयस्त्रिंशतो लक्षाणाञ्च रूप्यकाणां हानिवित्तम् अभियाचितमस्ति। आयोगस्य प्रवक्तुः नारायण प्रसाद रिशालस्य अनुसारेण एतेषां कृते हानिवित्तस्य प्रतिग्रहणेन सह दण्डनम् अभियाचितमस्ति। ह्य आराष्टम् सहस्रत्रयम् अष्टपञ्चाशद् अधिक पञ्चशतञ्च कोरोना संक्रान्ता जना संक्रमणात् मुक्ता सन्तो गृहम् प्रत्यावृता सन्ति। ह्य एव सहस्रद्वयम् एकविंशत्यधिक चतुश्शतञ्च नवीन संक्रान्ता जना प्राप्ता वर्तन्ते। कोरोना संक्रमणात् अतिरिक्ता एकाशीति जना अम्रियन्त। एतेषु ह्य पश्चात्तनिषु चतुर्विंशत्यम् घण्टासु द्वापञ्चाशत् जना मृता, अवशिष्टा उनत्रिंशत् जना विगत तथ्याङ्केषु असमाविष्टा सन्तीति स्वास्थ्य जनसंख्या मन्त्रालयस्य प्रवक्ता डाक्टर कृष्ण प्रसाद पौडेल अवोचत्। अनेन सह नेपाले कोरोना संक्रमणेन मृतानां जनानां पश्चात्तनी संख्या अष्टौ सहस्राणि चतुर्नवत्यधिकाष्टौ शतञ्च प्राप्तेति अनेन मन्त्रालयेन ज्ञापितं वर्तते। पाल्पा जनपदस्य रिस्ती ग्रामपालिकायां समुदायस्तरे कोरोना संक्रमणं प्रसृतं वर्तते। एतस्याः ग्रामपालिकायाः सप्तमवडा क्षेत्रवर्तिनी ज्यामिरे स्थाने कोरोना विषाणो नवीनो परिवर्तनस्य प्राप्ते सम्भावनाम् आकलय्य वडाक्षेत्रं परिपिधापितं वर्तते। राष्ट्रस्य आन्तरं विमानोड्डयनम् अस्यैव आषाढस्य सप्तदश दिवसात् सञ्चालिता। संस्कृति पर्यटन नागरिकोड्डयन मन्त्रालयेन जनस्वास्थ्यस्य मापदण्डस्य पूर्ण परिपालनत्वेन अपराधेशस्य अप्राप्तिं यावत् आषाढस्य सप्तदश दिवसात् समग्रतः उड्डयन संख्यायाः प्रतिशतं पञ्चाशत अवर्धनत्वेन आन्तरोड्डयनं सञ्चालयितुं नियामकं नेपाल नागरिकोड्डयन प्राधिकरणं निर्दिष्टं वर्तते। मन्त्री परिषदः गत सोमवासरे उपविष्टेन उपवेशेन कोविड उनविंशतेः महामार्याः नियन्त्रणाय स्थगितकृतं विमानोड्डयनं सशपथं पुनः सञ्चालयितुं विहितस्य निर्णयस्य पश्चात् पर्यटन मन्त्रालयेन आन्तरोड्डयनम् सञ्चालयितुम् निर्णीतमस्ति। एवमेव मन्त्रालयेन अन्तर्राष्ट्रियोड्डयन पक्षेपि निर्धारित गन्तव्येषु अद्य बृहस्पतिवासरादेव उड्डयन सञ्चालनस्य व्यवस्थाम् विधातुम् उड्डयन प्राधिकरणम् निर्दिष्टमस्तीति प्रकाशितायाम् सूचनायाम् उल्लिखितम् वर्तते। मन्त्रालयेन अस्यैव जून मासस्य त्रिंश दिवस पार्यन्तिकी उड्डयन तालिका सार्वजनिकृता अस्ति। रोल्पा जनपदे भूस्खलनेन गृहस्य पूरणात् एकस्यैव परिवारस्य जनत्रयम् मृतम् अन्यत् जनत्रयम् आहतञ्च वर्तन्ते। अविरलवृष्टेः पश्चात् दूरापन्ने भूस्खलने निपत्य रोल्पा जनपदस्य लियुन स्थानस्य 68 वर्षीया कर्मिता बुढा, 18 वर्षीया सुशीला बुढा, 16 वर्षीया श्यामकला बुढा च मृताः इति जनपद प्रहरी कार्यालयस्य प्रहरी नायब उपरीक्षक नरेश राज सुवेदी अज्ञापयत। आहताः जनाः नेपाली सेनाया हेलिकप्टर यानेन उद्धृत्य उपचाराय ह्य बुटवल वर्तिनम् लुम्बिनी प्रादेशिक चिकित्सालयम् नीताः सन्तीति प्रमुख जनपदाधिकारी नवराज सापकोटा अज्ञापयत। बारा जनपदे ह्यसायम् वज्रपातेन एक मृत अन्य जनद्वयम् आहतञ्च वर्तन्ते। वज्रपातेन जितपुर सिमरूप महानगरपालिकाया विंशवडा क्षेत्रस्य वसडील वा स्थानस्य 28 वर्षीय विजय यादव मृत इति प्रहरी नायब उपरीक्षक प्रवक्ता च गौतम मिश्र ज्ञापितवान्। एवमेव खोटाङ जनपदस्य दीपरूङ चुईचुम्मा ग्रामपालिकाया षष्ठवडा क्षेत्रस्य छिता पोखरी स्थानेपि वज्रपातेन एक मृत अन्य जनद्वयम् आहतञ्च सन्ति। वज्रपातेन स्थानीय 69 वर्षीय अगम बहादुर राई मृत, तस्य पुत्री 45 वर्षीय तारा प्रपौत्री 14 वर्षीय रचना च आहते वर्तन्ते। इति समाचाराः।